एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः निगदति सुशासनस्य सामाजिक न्यायस्य समृद्धेश्च साम्प्रतिकी यात्रा इव समाजवादस्य यात्रा वर्तते। त्रयोविंशम् श्रमिक बलिदान दिवसम् पुस्तक विमोचन कार्यक्रमम् च पेरिस डाँडावर्तिनी दल कार्यालये ह्य सम्बोधयन् प्रधानमन्त्री प्रचण्डः अवोचत् भ्रष्टाचारम् नियन्त्र्य सुशासनम् संस्थाप्य च एव समाजवादस्य यात्रा भवति। तदवसरे प्रधानमन्त्री प्रचण्ड संक्रमण कालिक न्याय सम्बद्धम् विधेयकम् शीघ्रमेव संसदि प्रस्तुष्यते इति असूचयत्। प्रधानमन्त्री प्रचण्ड वासत संक्रमण कालिक न्याय सम्बद्धस्य विधेयकस्य सदनात् पारिति भवनानन्तरम् बलिदानस्य योद्धृन् प्रति सम्मानः अनुभूयते। संक्रमण कालिक न्याय सम्बद्ध सत्य निरूपण विलोपित व्यक्ति अनुसन्धानायोग सम्बद्धानाम् कार्याणाम् निर्णयम् प्राप्तेः अभावेन हुतात्म परिवारैः प्राप्तव्यस्य सहयोगस्य राज्यस्य पक्षतः हुतात्मनाम् नामसु तेषाम् बालबालिकाभ्यः प्रदातव्यस्य मृत्युपार्जनस्य च विषयाः अपि विधेयके समाविष्टाः सन्तीति प्रधानमन्त्री प्रचण्डः असूचयत्। प्रतिनिधि सभायाः ह्यस्तनोपवेशे प्रमुख प्रतिपक्षिणा दलेन सहितैः प्रतिपक्षिदलैः बालकुमारी घटनायाः विषये अनुसन्धानायोगेन अर्पितम् प्रतिवेदनम् संसदि प्रस्तोतुम् अभियाचितम् वर्तते। उपवेशे नेकपा एमाले दलस्य सांसदः योगेश भट्टराई बालकुमारी घटनायाः रामग्रामस्य भूमेः नैज क्षेत्राय प्रदानस्य च विषययोः सर्वकारस्य ध्यानम् आकर्षयत्। उपवेशे सांसदाः दीपक बहादुर सिंह प्रेम सुबालः एमाले दलस्य प्रमुख सचेतक पदियो पदम गिरी विराज भक्त श्रेष्ठ ज्ञानेन्द्र बहादुर शाही माधव सापकोटा च जनसम्बद्धेषु सामयिक विषयेषु विचारान् व्यक्तवन्तः। उपवेशे सभामुख देवराज घिमिरे संसद जनतायाः विषयेषु विमर्शनस्य स्थलम् अस्ति त्यतः विधिसम्मतरूपेण स्वविषयम् प्रस्तोतुम् सांसदान् अनुरुद्धवान् आसीत्। प्रतिनिधिसभायाः ह्यस्तनोपवेशे तद विक्रमवर्षीयम् कोषागारीयापराध दण्डन द्वितीय संशोधन विधेयकम् प्रकरणगत विमर्शनाय समितौ प्रेषितम् वर्तते। उपवेशे अर्थमन्त्री डा प्रकाश शरण महत विधेयकमेतद् प्रस्तुतवान् आसीत्। उपवेशे कृषि सहकारी प्राकृतिक स्रोत समितेः सभापतिः डा आरजू राणा देउवा राष्ट्रिय सभायाम् उत्पन्नम् खाद्य स्वच्छता गुणस्तर विधेयक सम्बद्धम् समितेः एतद् विक्रमवर्षीयम् प्रतिवेदनम् प्रास्तोत। प्रतिनिधिसभायाः अपरोपवेशः स्वफाल्गुनस्य त्रयोदशे दिवसे रविवासरे पूर्वाह्नस्य एकादशवादने वस्ता। राष्ट्रिय सभायाः ह्यस्तनोपवेशेन मौलिकाधिकार क्रियान्वयनाय अवशिष्टान् विधिन् आगामिनः आश्विन मासस्य तृतीयम् दिवसम् यावद् निर्मातुम् संकल्प प्रस्तावः सर्वसम्मत्या पारितकृतो वर्तते। संकल्प प्रस्तावमाधृत्य वित्ते विमर्शने सांसदाः संविधान निर्माणस्य दशवर्षाणाम् अनन्तरमपि मौलिकाधिकाराणाम् क्रियान्वयनाभावस्य अवस्थायाः दर्शनात् आगामिनः आश्विन मासस्य तृतीयदिवसाद् नवम संविधान दिवसात् च पूर्वमेव मौलिकाधिकाराणाम् क्रियान्वयनार्थम् आवश्यकानाम् विधीनाम् निर्माणाय संकल्प प्रस्तावः प्रस्तुतोऽस्तीति उक्तवन्तः। संकल्प प्रस्तावमादृत्य विहिते विमर्शने उत्थापितानाम् प्रश्नानाम् उत्तरम् प्रयच्छन् विधिन्याय संसदीय विषय मन्त्री धनराज गुरूङ मौलिकाधिकाराणाम् क्रियान्वयनाय आवश्यक विधीनाम् निर्माणार्थम् कानिचिद् महत्वपूर्णानि विधेयकानि संसदः विभिन्नासु समितिषु विचाराधीनानि कानिचित् च विधेयकानि यथाशीघ्रम् प्रस्तोतुम् सर्वकारः प्रतिबद्धोऽस्तीति प्रावोचत। उपवेशे विधिन्याय संसदीय विषय मन्त्रिणा धनराज गुरूङ इत्यनेन प्रस्तुतम् एतद् वर्षीयम् विक्रमवर्षीयम् विधायन सम्बद्धम् विधेयकम् पारितकृतम् वर्तते। उपवेशे अर्थमन्त्री डा प्रकाश शरण महत एतद् विक्रमवर्षीयम् सुरक्षित व्यवसाय प्रथम संशोधन विधेयकम् प्रास्तौत। तत्पूर्वम् राष्ट्रियसभाया ह्यस्तनोपवेशे सांसदाः राष्ट्रिय गौरवस्य आयोजनाः यथाशीघ्रम् अग्रे वर्धयितुम् सर्वकारस्य ध्यानम् आकृष्टवन्तः। उपप्रधान गृहमन्त्री नारायण काजी श्रेष्ठ भाषते सुशासनम समृद्धि सामाजिक न्यायश्च सर्वकारस्य मूलमन्त्राः वर्तन्ते। नेपाल गंजनगरे ह्य आयोजिते पत्रकार सम्मेलने नागरिक समाजेन सह अन्तर्क्रिया कार्यक्रमे च गृहमन्त्री श्रेष्ठ सर्वकारेण राष्ट्रिय सुरक्षायाः राष्ट्रिय एकतायाश्च दृढतायै कार्यम् विद्यमानम् अस्तीति अवोचत। गृहमन्त्री श्रेष्ठ नेपाल गंजनगरे सम्पन्नायाम् द्विदिवसीयायाम् सुरक्षा गोष्ठ्यां शान्ति सुरक्षा विषय व्यापकतया गभीरेण विमृष्टमिति अज्ञापयत। गृहमन्त्री श्रेष्ठ लुम्बिनी प्रदेशस्य द्वादशसु जनपदेषु सुरक्षायाः अवस्थायाः विषये विमृश्य अतिरिक्ताः रणनीतिः निर्धारिता वर्तते इति असूचयत। परराष्ट्र मन्त्रिणः नारायण प्रकाश साउदी इत्यस्य भारतीय विदेश मन्त्रिणः एस जयशंकरस्य च मध्ये मेलवार्ता सम्पन्नास्ति। बहुपक्षीय मञ्चस्य रायसीना संवादस्य नवम संस्करणे सहभागितायै भारतस्य नयाँ दिल्ली स्थानं प्राप्तस्य परराष्ट्र मन्त्रिणः साउदी इत्यस्य भारतीय विदेश मन्त्रिणः जयशंकरस्य च मध्ये ह्य मेलवार्ता सम्पन्नास्ति। तदवसरे भारतीय विदेश मन्त्री जयशंकरः मन्त्रिणा परराष्ट्र मन्त्रिणा साउदी इत्यनेन सह वितया वार्तया द्विपक्षीय सम्बन्धस्य अनुकूल प्रक्षेपणं पुनः पुष्टीकृतम् अस्तीति अवोचत। अस्यैव फाल्गुनस्य नवमे दिवसे नयाँ दिल्ली स्थानं प्राप्तः मन्त्री साउद मञ्चममुम इह समबोधयत् इति परराष्ट्र मन्त्रालयेन ज्ञापितं वर्तते। परराष्ट्र मन्त्रिणः साउदी इत्यस्य भारत सर्वकारेण सह सहभागिनाम् अन्य देशानाम् उच्चस्तरीय व्यक्तिभिः सहापि मेलवार्तायाः कार्यक्रमः निर्धारितो वर्तते। पौष शुक्ल पूर्णिमातः प्रारब्ध स्वस्थानी व्रत प्रकल्पः अद्य माघ शुक्ल पूर्णिमायां पूर्णतां प्राप्तोस्ति। अद्य माघ शुक्ल पूर्णिमायां भक्तजनैः मध्याह्ने पूजां विदाय व्रतस्य अस्य समापनं विधीयते। काष्ठमण्डपे साँखु नामके स्थाने शालिनद्यां प्रारब्धा माधव नारायण मेलापि मासानन्तरम् अद्यैव समाप्यमानो न वर्तते। श्री स्वस्थानी व्रतस्य कृते काष्ठमण्डपस्य साँखुस्थाने शालिनद्याः तटे अद्य विशेष समवाय दृश्यते। शालिनद्यां स्नात्वा व्रताचरणेन व्रतम् सफलम् भविष्यति इति श्री स्वस्थानी व्रत कथायाम् उल्लिखितम् वर्तते। इत्यतः नेपालस्य भारतस्य च विभिन्नेभ्य स्थलेभ्य व्रतालुभिः महिलाभिश्च शालिनदीम् प्राप्य एकमासम् यावत् व्रतम् आचरितम्। गतस्य माघमासस्य एकादश दिवसात् पौष शुक्ल पूर्णिमातः भगवत्याः स्वस्थानी देव्याः एकमासात्मकम् व्रतम् प्रारब्धमासीत्। पुरा देवादिदेवं महादेवं पतित्वेन वरितु कामया त्यक्ता हारया पार्वत्या बालुकायाः शिवलिङ्गं निर्माय शिवपूजनं कृतं। तस्य प्रभावेण सा सर्वभूतपतिं पशुपतिं अवाप इति वृत्तान्तः स्वस्थानी व्रतस्य महत्वागानावसरे चर्चितो वर्तते। गौरीशंकरयोः सम्मेलनमनुम् लोककल्याणार्थं पार्वत्या ऋषिभिश्च इदं व्रतं प्रचारितमिति जनविश्वासोऽस्ति। मोरङ जनपदस्य बुढीगंगा ग्रामपालिकायाः चतुर्थवडा क्षेत्रस्य प्रगति टोलस्थाने भारतीय भार वाहन यानम् गृहोपरि उन्नमितम् सदा तिस्रः बालबालिकाः मृताः सन्ति। मृतकाः बुढीगंगा ग्रामपालिकायाः इशिता अधिकारी, निशान्त अधिकारी, रिया खवासश्च सन्ति। मृतकेषु द्वौ एकस्यैव परिवारस्य वर्तेते। ह्य अप्रशोधित सामग्रीम् आदाय उद्योगं प्रति प्रस्थीयमानं भारवाहक यानं गृहस्योपरि उन्नमितं तेन च त्रयो तिस्रः बालबालिकाः मृता इति प्रहरिणा ज्ञापितं वर्तते। इति समाचारः।